अहं जयश्री.
स्वागतं भगिनि, सर्वेषां स्वागतं. प्रार्थनया आरम्भं कुर्मः. अस्तु भगिनि, वदतु कृपया.
सर्वेषां नमो नमः. शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणि. विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः. गुरुस्साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः. ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ.
बहु धन्यवादः भगिनि. विष्णुमहोदय कादस्तात् गच्छामः. विष्णुमहोदय, भवान् सुभाषितं पठति वा? धन्यवादः.
तक्षकस्य विषं दन्ते, माक्षिकायाश्च मस्तके. वृश्चिकस्य विषं पृच्छे, सर्वाङ्गे दुर्जनस्य तत्.
बहु सुलभः एव खलु, वयम् अवगन्तुं शक्नुमः. अत्र
विषम् अस्ति. चक्षुषे, अक्षिकायाश्च मस्तके. अक्षिकाया विषं तस्य मस्तके भवति. इन् द ऐस्
मस्तके इत्युक्ते हेड्. हेड्
मक्षिकायाश्च मस्तके. मक्षिका
सो अत्र एवम् अस्ति. तक्षकः इत्युक्ते सर्पः.
ओ सर्पः. आमां.
तक्षकस्य विषं दन्ते अस्ति. मक्षिका इत्युक्ते मधुमक्षिका इति वदामः चेत् पुच्छे अस्ति. साधारणमक्षिका इत्युक्ते मस्तके अस्ति. अनन्तरं वृश्चिक, वृश्चिकस्य विषं पुच्छे अस्ति. वयं जानीमः विषं कुत्र अस्ति इति, अतः तत्र न गच्छामः, दूरे एव वयं स्थास्यामः. परन्तु दुर्जनः इति वदामः चेत् कुत्र अस्ति विषं न जानीमः, न जानीमः.
सर्वत्र
सर्वत्र भवति, सर्वाङ्गे भवति. इत्युक्ते ते दुर्चिन्तनं कुर्वन्ति, दुर्वचनं वदति, दुष्क्रियामपि कुर्वन्ति. अतः वयं न जानीमः कुत्र अस्ति तस्य विषम् इति. अतः सर्वत्र अस्ति इति अनुमानं कृत्वा दूरे एव स्थास्यामः इति सुभाषितम् एवं वदति. सर्पस्य विषं तस्य दन्ते अस्ति, मक्षिकायाः विषं तस्याः मस्तके भवति, वृश्चिकस्य विषं तस्य पुच्छे वसति, परं दुर्जनस्य विषं तु तस्य सर्वाङ्गे वसति.
धन्यवादः.
बट् ऐ थिङ्क् इट् इस् ओन्लि पु, पुच्छे एव. Yeah, good catch, Mahadeya. It is only Pucche. Dhanyavada. Astu, punare ekavaram geetva agrimavarge नूतनगीतं गायामः. कोऽपि गातुम् इच्छति वा?
अहं गायामि वा?
हा गायतु भगिनि.
अवनितलं पुनरवतीर्णस्य अवनितलं पुनरवनीत पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा वयं तु कृतनिर्धारम् निपततु पण्डितहरशिरसि प्रवहतु नित्यमिदं वचसि प्रविशतु वैयाकरणमुखं पुनरपि वहता जनमनसि पुत्रसहस्रं समुद्रतं स्यात् पुत्रसहस्रं समुद्रतं स्यात् यातु तजन्म विकारा यान्तु च जन्मविकारम् अवनितलं पुनरवतीर्णा किं भगिनि
अत्र गीत्वा धीरभगीरथ पुत्रसहस्रं समुद्रतं स यान्तु च जन्मविकार
वयं तु कृतनिर्धारा वयं तु कृतनिर्धारा.
धन्यवादः भगिनि. अन्य कोऽपि गातुमिच्छति वा द्वितीयपङ्क्ति?
अहं गायामि वा भगिनि?
गायतु भगिनि.
ग्रामं ग्रामं गच्छाम संस्कृतशिक्षां यच्छाम सर्वेषामपि तृप्तिः तासं स्वक्लेशं न हि गणयेम कृते प्रयत्ने किं न लभेत् कृते प्रयत्ने किं न लभेत एवं सन्ति विचारा धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा वयं तु कृतनिर्धारा. या माता संस्कृतिमूला यस्या व्याप्तिस्तु सुविशाला वाङ्मयरूपा सा भवतु लसतु चिरं सा वाङ्माला सुरवाणीं जनवाणीं कर्तुं यथा मयि कृतशूरा धीरभगीरथवंशोऽस्माकम् वयं तु कृतनिर्धारा वयं तु कृतनिर्धारा अवनितलं पुनरवतीर्णा स्या अवनितलं पुनरवतीर्णा स्या संस्कृतगङ्गाधारा धीरभगीरथवंशोऽस्माकम् वयं तु कृतनिर्धारा वयं तु कृतनिर्धारा.
धन्यवादः. अन्य कोऽपि गातुम् इच्छति वा? बहु सम्यक् अस्ति. न वा? अस्तु, अग्रे गच्छामः. कोऽपि किं वदामि, मिलित्वा गातुम् इच्छति वा कोऽपि? अस्तु, मिलित्वा गायामः एकवारं.
धीरभगीरथवं सोऽस्माकं
वायन्तु कृतनिर्धारा वायन्तु
कृतनिर्धारा
निपततु
पुनरपि वहता जनमससि वयं तु कृतनिर्धारा
वयं तु कृतनिर्धारा ग्रामं
ग्रामं
गच्छामः
कृते प्रयत्ने किं न लभेत एवं सन्ति विचारावं वयं तु वयं तु
या माता
विशालाणी
बहु सम्यक् धन्यवादः. अस्तु, गतवर्गे वयं विद्यारण्यः इति आरम्भं कृतवन्तः खलु. परन्तु सम्पूर्णतया न पठितवन्तः. सो अत्र किम् अभवत् एकवारं स्मृत्वा अग्रे गच्छामः. किम् अभवत् अत्र?
तुङ्गभद्राया तीरे एकः गृहस्थः निवसति.
अस्तु, गुरुकुलम् आसीत् अत्र.
तस्य नाम मायाण. सः त्रीणि पुत्राणि.
त्रयः पुत्राः सन्ति. त्रयः पुत्राः सन्ति, माधवः,
नारायणः,
भोगनाथः इति. अस्तु,
ते सर्वे तेजस्विनः. तस्य समीपे कश्चन आश्रमः सन्ति. ते सर्वे विद्याभ्यासं कुर्मः.
कुर्वन्ति तत्र.
माधवः क्रीडाभ्यासे च क्रीडासु अग्रगण्य.
इत्युक्ते बहु सम्यक् करोति, गुरूणां प्रियतमः अपि। एकस्मिन् दिने किम् अभवत्? प्रातःकालः अभवत्,
सः माधवः स्नानार्थं नदीं तत्र एक महिलाया चित्कारः श्रुतः। सः चिन्तयत् परितः पृष्ठतः सर्वे दिशां दृष्टवान्। सः पुनः चित्कारः श्रुतः। सः नद्या तीरे आगतवान्। चित्कार अनुसृत्य धावति सः द्रष्टुम् एका शिबिका बलपूर्वकेन सैनिकः गृहीतम्। शिबिका भीषयन्ति,
शिबिकां सम्यक् भीषयन्ति, वाहकान् भीषयन्ति। तत्र
शिबिका एका युवा अस्ति, सैनिकः तरुणस्य अपहर्तुं प्रयत्न करोति,
तरुणीम् अपहर्तुं प्रयत्नं करोति। अस्तु,
सा युवा तरुणी भयात् क्रन्दं करोति।
अस्तु,
माधव द्रष्टं महाक्रोध भवत्। सः मनसि चिन्तयति मम भारतदेशे स्त्रिया अपमानं भवति किम्। सैनिकः यवन भवति, एक यवन सैनिकः भवति वा? सः माधवः निरायुधः भवति, तदपि सः न गणितवान्, आक्रमणं कृतवान्। सः सैनिकं प्रहारं कृतवान्, तदपि तदनन्तरं तरुणस्य विमोचनं साधितः।
तरुण्याः विमोचनं साधितवान्। इतोपि पर्यन्तं पठितवन्तः वयं। अस्तु, अग्रे का वदति? सविता भगिनी पठति वा?
आं भगिनि,
धन्यवादः।
युद्धसमये माधवस्य शरीरं क्षतिविक्षतम् आसीत्। एतद् दृष्ट्वा गुरुः पृष्टवान्।
कुत्र पठति भगिनि?
लास्ट् पेराग्राफ् भगिनि,
न प्रथमतः आरम्भतः एतत् आक्रमणम्।
ओके, एतत् आक्रमणं यवनानाम् अनिरीक्षितम् आसीत्। ते अपि क्रुद्धाः सञ्जाताः। ब्राह्मणबालकं दृष्ट्वा तेषां कोपः प्रवृद्धः। ते सर्वं मिलित्वा बालकस्य उपरि आक्रमणं कृतवन्तः।
अस्तु,
एतत् आक्रमणं यवनानाम् अनिरीक्षितम् आसीत्। ते अपि क्रुद्धा अभवत्। ब्राह्मणबालकं दृष्ट्वा तेषां कोपः अतिकोपः प्रवृद्धः। ते सर्वे मिलित्वा बालकस्य उपरि आक्रमणं कृतवन्तः
अस्तु सम्यक्
भगिनी यवना इति ग्रीक् पीपा ग्रीक् लोका
साधारणतया यवना इत्युक्ते तादृशमेव वदामः आम्
सिकन्दरस्य सेना
आम् सिकन्दर सम्यक् अस्तु शारदा भगिनी
भगिनी तत्र यवनानां षष्टि विभक्ति खलु
आम्
षष्टि कथं तत्र आगच्छति यवनानाम् अनिरि
सो अत्र कुत्र अस्ति शिबिकां परितः यवनसैनिकाः द ग्रीक् सैनिकाः आसन्
ओके
सो अतः वि केन् से यवनसैनिकानाम् अथवा यवनानाम्
What I was trying to understand was, this was unexpected for the soldiers, right?
Yeah. So what was unexpected? The Balakasya Akramana. Sadhyah eva Akramanam krutavan Madhavah. Madhavasya samipe ayudah nasti, ayudam nasti.
आम् आं भगिनि परन्तु तत्र यवनानाम् इत्युक्ते यवनसैनिक् ऐ मीन् द षष्ठी पर्टेन्स् टु द सोल्जर्स् एण्ड् नाट् टु द बाय् रैट्
नाट् टु द बाय् नाट् टु द बाय्
सो वै ऐ एम् स्टिल् नाट् क्लियर् ऐ केन् अण्डर्स्टाण्ड् बालकस्य आक्रमणं आसीत् But why Yavananam? Yavananam becomes Shashti Bahuvachanam, no, Bhagini?
Asit. Kim Asit? Anirikshitam Asit.
Right.
Kim Anirikshitam Asit? Akramanam. Etat Akramanam Anirikshitam Asit. For whom? Kasya Yavananam? For the Yavananam, this was unexpected. Iti.
Kasya, okay. For Kasya would mean belonging, no, Bhagini?
Yeah, but sometimes it doesn't just to stay in that place, no?
Okay, so it would be wrong to use Dvitiya over there? Object?
Dvitiya will be akramanam, like that.
Okay.
Balakasya akramanam.
Balakasya akramanam to the Yavana Sainikaha was unexpected. So, for that, to Yavana Sainikaha, I'm just trying to understand how Shashti is used there.
But if we translate from our Matrubhasha, it will work out better.
So
how will we say that in Tamil, right?
Yavanasya unexpected.
It was unexpected for him. So when I say for, Sanskrit Bhasha, we go to Chaturthi, but it is not Chaturthi.
Yeah, correct. The Yavanartham, for them it was...
Yeah, so it will go to Chaturthi, that is not correct. If we say to, it goes to Dvitiya, that is not correct either.
Okay.
Bhagini Karmapat kaha then? कर्तुपदम् आसीत् अकर्मकक्रियापद
सम्यक् अकर्मकक्रियापदम् आसीत् इति अकर्मकक्रियापदं किम् आसीत्
कर्तृपदम् आक्रमणं खलु भगिनी द सब्जेक्ट् इस् आक्रमणं रैट्
अनिरीक्षितम् आसीत् दट् इस् द कर्तृपदम् अनिरीक्षितम् आसीत् किम् आसीत् अनिरीक्षितम् आसीत्
नपुंसकलिङ्गं
नपुंसकलिङ्गम् अनिरीक्षितम् आसीत् किम्
इट् इस् नाट् विशेषणम् अनिरीक्षितम् आक्रमणं डजन्ट् मेक् इट् अ
विशेषण अनिरीक्षितं मीन्स् इट् वास् अन्एक्स्पेक्टेड् वाट् वास् अन्एक्स्पेक्टेड् हिस् आक्रमणं वास् अन्एक्स्पेक्टेड् हिस् अटेक् वास् अन्एक्स्पेक्टेड् फार् हूम् फार् द यवनाना
for the yavana sainikaha so we have to kind of understand that this in this context we should use shashti right
yeah shashti shashti
yavanasya anirikshita
bhagini
bhagini we can also use chaturthi also yavananam krite anirikshitam abhavat we can say like that
okay
asti bhagini
can we use the tritiya Can we use Tritiya Vibhakti Yavanaihi Anirikshitam Asi?
Why? By Yavanana.
Yavanaihi would mean by the soldiers, no Bhagini?
By the soldiers, it was unexpected.
It was.
No.
Yeah.
No, Janam. How will that work?
For soldiers, it was unexpected.
So then we go to Chaturthi. Yavananam drishtya anirikshitam asit. No, that also won't work that well. So we can take another example. So expected
soldier thinking
yeah so instead of anirikshitam means unexpected okay so we can say ikshitam means it was looked at it was observed Supposing we say ikshitam, what was ikshitam? Something, drishyam was ikshitam. Drishyam ikshitam asit. So here you can use by whom? Sainikena ikshitam asit.
Yavanasya mane anirikshitam.
यवरस्य मनसि अनिरीक्षितं मनसि अनिरीक्षितं
षष्टि
षष्टि सो लैक् हौ दि अदर् भगिनी सेड् वी केन् यूस् तृतीया आल्सो इन् दिस् काण्टेक्स्ट् वेरि इण्ट्रेस्टिङ्ग् वी केन् यूस् चतुर्थी आल्सो धन्यवादः भगिनि यवनानां कृते अनिरीक्षितम् आसीत् वी केन् डू देट् आल्सो अस्तु अग्रे गच्छामः शारदा भगिनी
माधवः तु धीरः समीपे एकः योद्धः आसीत् तस्य हस्तात् माधवः खड्गम् आकृष्टवान् तेन खड्गेन द्वित्रान् मारितवान् एतत् दृष्ट्वा इतरे अपि पलायनं कृतवन्तः तरुणी भयकम्पिता आसीत् माधवः तां तस्याः गृहं प्रापितवान् तदनन्तरम् आश्रमं प्रत्यागतवान् माधवः धीरः आसीत् अथवा समीपे योद्धस्य हस्तात् खड्गं गृहीतवान्
सम्यक्
खड्गेन द्वे यवनौ द्वौ यवनौ मारितवान्
द्वौ यवनौ मारितौ, द्वौ अप अथवा त्रीन् लैक् दट्, द्वित्रान् इत्युक्ते टु आर् त्रि,
टु आर् त्रि
लैक् दट्.
एतत् दृष्ट्वा एव्रिबडि रान् अवे, पलायनम्,
अन्य सर्वे पलायितवन्तः.
तरुणी भयकम्पिता आसीत्, शी वाज़ लेस् स्केर्ड्.
नो, kampita means shivering, she was scared, she was shivering with fear. Taruni bhaya kampita asi, bhayena kampita asi.
Madhavah sent her to her house, tam tasyam graham preshitavan, tadanantaram swasya ashramam prati agatavan.
So prapitavan is like the nich prayoga, like we say karayati, made her go home, like that. Prapitavan, he brought her home, iti arte, not just sent her but took her home. Prapitavan
sadri
इतरे इत्युक्ते दि अदर्स् इतरे अपि
प्रापितवान् प्र उच् उपसर्ग
प्र सो नो नो इट्स् नाट् उपसर्ग या इट्स् लैक् आप्नोति प्राप्नोति रैट् सपोसिङ्ग् वि से सा तस्याः गृहं प्राप्तवान् ऐ एम् सारी प्राप्तवती she reached home, sa griham praptavati, but here it is prapitavan, so he made her reach home, like that nich. So this is the nich prayoga, when you make somebody else do thing, something like I'm making somebody do something, karayami. If I am doing myself, karomi. Like that. Astu, Sandhya Bhagini agre.
Am Bhagini. Yudha samye Madhavasya shariram satavikshatam aasit. Etat drishtva guruhu prishtavan kim sanjatam iti. Madhavah sarvam vritantam niveditavan. यदा युद्ध अभवत् तदा माधवस्य शरीरं बहु विक्षितम् अभवत्. गुरुः तत् दृष्ट्वा पृष्टवान्, भोः माधवः किम् अभवत् इति. माधवः वदति तत्र किं वृत्तान्तम् अभवत् इति.
सम्यक्, वृत्तान्तम् इत्युक्ते यत् सर्वम् अभवत् तत् सर्वं सः उक्तवान्. सम्यक्, अस्तु. अग्रे अग्रे सागरी भगिनि.
तदा तत्र त्याह केचन गुरुं पृष्टवन्तः, ब्राह्मणः युद्धं कर्तुम् अर्हति किम्? एतत् धर्मविरुद्धं किल इति. गुरुकुले केचन गुरुं पृष्टवन्तः, ब्राह्मणः युद्धं न करणीयं, युद्धं ब्राह्मणस्य स्वधर्मं नास्ति, अतः धर्मविरुद्धः अस्ति इति said bagini I forgot what said
vadanti samyak 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 eva bagini dhanyavadah nirmala bagini agre
tada guru uktavan madavah yuktam eva acharitavan puja arna rakshanam kariyam karaniyam eva अतः माधवः श्रेष्ठं धर्मम् आचरितवान् इति सो गुरु उक्तवान् युक्तं मीन्स् वाट् भगिनि
युक्तं मीन्स् समथिङ्ग् दट् इस् गुड् उचितम् उचितमेव उचितम् इति अप्राप्रियेट्
माधवः युक्तं करणीय पूजार्हणां रक्षणं करणीयं पूजार्हणां रक्षणं
दोस् हू शुड् बि प्रोटेक्टेड् टु बि किं वदामि पूजार्हाणाम् इत्युक्ते उत्तमजनानाम् उत्तमजनानां रक्षणं करणीयम् एव आक्चुलि दि आक्चुवल् वर्ड् इस् पूजार्हाणां दोस् हू शुड् बि
रिस्पेक्टेड्
वर्शिप् आक्चुलि इट् इस् बि वर्शिप् बट् यु नो वी केनाट् टेक् इट् लैक् वर्शिप् बट् वी केन् टेक् इट् लैक् रिस्पेक्टेड् श्रेष्ठं धर्ममेव इत्युक्ते स्वधर्मं श्रेष्ठधर्ममेव सो दट् इस् द जनरल् कन्सेन्सस् खलु स्वधर्ममेव श्रेष्ठं धर्मं स्वधर्ममेव कृतवान् सः स्वधर्ममेव आचरितवान् एव युक्तं धर्मम् इत्युक्ते उचितं कार्यमेव कृतवान् सः किं भगिनि
So he is praising Madhava for what he has done. Even though it is against Dharma, doing war, but here he is praising him.
Yeah, he is praising him because he said he did the right thing. He did the right thing and then he says, protecting those who should be protected is the right thing. Rakshanam karaniyam eva. Therefore, he did the correct dharma, the sreshtam dharma, the most important dharma is to protect those who need to be protected. So, he did the best dharma. So,
dushta shikshanam shishta rakshanam.
Vadatu bhagini punaha dushta.
दुष्टशिक्षणां शिष्टरक्षणां
इत्युक्ते किं भगिनि वदतु
गुड् सुजना दोस् पीपल् हव् टु बि प्रोटेक्टेड् एण्ड् द बेड् पीपल् दे नीड् टु बि टाट् अ लेसन् दुष्टशिक्षणां शिष्टरक्षणं दे यूस् द वर्ड् देयर् भगिनि
दुष्टशिक्षणां
शिष्टरक्षणां
अवशिष्टरक्षण अस्तु अस्तु
परित्राणाय साधूनाम् अपि सम्यक्
विनाशाय च दुष्कृत सम्यक् यस् आम् सम्यक् अस्तु अन्तिमम् अस्ति निर्मला भगिनी वदति वा
माधवः ततः परं विद्यारण्य इति प्रसिद्धा एष एव विजयनगरं स्थापितवान्
एषः एव
माधव फ्रम् देन् आन् हि वास् नोन् एस् विद्यारण्य इस् इट्
आम् सम्यक् करेक्ट् हि बिकेम् फेमस् एज् विद्यारण्यः हि इस् द वन् हू एस्टाब्लिश्ड् विजयनगरं स्थापितवान् सो दिस् इस् फ्रम् बुक् काल्ड् सुगन्धः एण्ड् दट् इस् द रेकमेण्डेड् reading for us
bhagini
I'm kind of struggling with the usage of some of these vibhaktis, Bhagini. So, may I ask you another very fundamental question?
Bhagini. Yes.
Prativaram Mahodaya Vadati, Bhagini, Sarvesham Swagatam Iti. तत् वाक्ये सप्तमी विभक्ति कथम् आगच्छति सर्वेषां
सर्वेषाम् इस् षष्टि
षष्टि ओ ओके 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 सर्वेषां वुड् बि षष्टि विभक्ति ओके सो हौ वुड् इट् बि षष्टि
या दट्स् अ वेरि गुड् क्वश्चन्
सप्तमी
सर्वेषु सप्तमी करे सो सर्वेषां स्वागतं वदामि लैक् लैक् सर्वेषां कृते स्वागतं वदामि सर्वेभ्यः नमः इति वदामि सो सो इट् इट् वर्क्स् लैक् देट् सर्वेषां
इन् मै स्टुपिड् वे ऐ वुड् हव् थाट् इट् इस् चतुर्थी सर्वेभ्यः एण्ड् ऐ वुड् नेवर् हव् फिगर्ड् इट् इस् यु नो षष्टि इस् टु बि यूस्ड् भगिनि दट्स् वै ऐ एम् कैण्ड् आफ़्
I know. Because I've heard everybody say Sarvesham Swagatam. Right? So when I keep thinking about it, this is what I came up with. Sarvesham, like, Sarvesham Krite Swagatam Iti Vadami. So,
okay.
I can, yeah. So it is the Chaturthi, but saying it in Shashti. There is one song kalu mama karaniyam. What is that song? Lokahitam mama karaniyam. Actually lokahitam asmabhi karaniyam. So you know it can be used in shashti also. Some of the vibhaktis which cannot be used can be used in shashti.
Oh.
Like how you know you pointed out here yavananam anirikshitam asit like that.
Dhanyavada bhagini.
So that is one thing they say about shashti, like, you know, for each vibhakti there is a precise reason to use it, like you know, karmani dvitiya kartari pratama. And then for sadhanam, tritiya, like that. And then for everything else, shashti they say. Hmm. Shishte shashti.
Oh.
So shashti can be loosely used by to express anything.
Oh, I see. Okay.
And that's what you see in stories.
Dhanyavadah,
Bhagini. Astu, Bhagini. अस्तु सप्तमी विभक्तिरूपाणि एकवारं पश्यामः. अग्रे अस्ति सर्वनामपदानि, खलु? सर्वनामपदानि सन्ति. वयं बहुवारं पठितवन्तः सप्तमी विभक्तिरूपाणि. अन्यका अस्ति लता भगिनी, पठितवती वा?
आं भगिनि. सप्तमी विभक्तेः रूपाणि
एकनिमिषं भगिनि. पुल्लिङ्ग अकारान्त नपुंसकलिङ्ग अकारान्त मास्तु, आकारान्त स्त्रीलिङ्गमपि मास्तु. इकारान्त नूतनपदमपि नूतनपदमेव पठतु हरि. इकारान्त पुल्लिङ्ग
सप्तमी विभक्ति इकारान्त पुल्लिङ्ग हरौ हर्योः हरिषु इकारान्त श्रीलिङ्ग मत्यां मतौ मत्योः पतिषु इकारान्त नपुंसकलिङ्ग वारिणिः वारिणोः वारिषु.
सो अत्र विसर्गः नास्ति. ओके, इट्स् अ मिस्टेक्. ऐ विल् फिक्स् इट् रैट् नौ. वारिणि एव, वारिणिः नास्ति.
नास्ति, ओके.
वारिणी अस्ति, बट् वारिणोः इष्ट, वारिणोः इष्ट, वारिणिः न. वारिणि वारिणोः वारिषु,
वारिणोः वारिषु,
वारिषु. सो अत्र पति इति इट् इस् एन् एक्सेप्शन् अपवादः अस्ति पत्युः
पत्युः पत्योः पतिषु
पतिषु
ईकारान्त श्रीलिङ्ग गौरीशब्द गौर्यां गौर्योः गौरीषु
गौरी
उकारान्त पुल्लिङ्गशब्द गुरुः गुरौ गुर्वोः गुरुषु उकारान्त धेनुशब्द श्रीलिङ्गधेनुशब्द धेन्वाम् अथवा धेनौ धेन्वोः धेनुषु उकारान्त मधुशब्द नपुंसकलिङ्ग मधुशब्द मधुनि मधुनोः मधुषु
मधुषु सो एवम् अस्ति सो अत्र किम् अस्ति इत्युक्ते इकारान्तपदम् अस्ति चेत् यो भवति अग्रे उकारान्तपदम् अस्ति तत्र वकारः भवति गुर्वोः धेन्वोः एवं भवति
भगिनी वारिणीः हि अस्ति सप्तमी प्रथमा विभक्ति ऐ मीन्
एकवचनं
वारिणीः
वारिणी एव
मम पुस्तके विसर्ग अस्ति
अस्ति वा अहमपि तथा लिखितवती परन्तु इदानीम् अहं चिन्तयामि तत् न भवति इति
भवति भगिनि भवति
भवति वा
आं भवति मम पुस्तके ऐ मीन् प्रवेश पुस्तके
नास्ति भगिनि तत् मुद्रणदोषः एव गीतासोपाने पश्यतु भगिनि
एकवचने वारिणीः भवति
वारिणीः कथं भवति न
प्रथम एकवचने वा
प्रथमा अपि वारिः न भवति विसर्गः न भवति अस्ति वा वारिणिः इति अस्ति वा
न भगिनि पेज् 199 गीतासोपानं कोष्टकम् अस्ति
आम् तत्र अपि न भवति एव निश्चयेन वारिणि एव अहं कुत्रापि दृष्ट्वा एव तत्र लिखितवती परन्तु दोषः एव
मम
भगिनी अनदर वेरि स्टूपिड् क्वेश्चन् भगिनि
वारिणिः अस्ति
अहं चिन्तयामि दोषः भगिनि तत्तु
भगिनी अहं संसाग्नी पश्यामि तत्र एव वारि विसर्ग नास्ति प्रथमविभक्ति
नास्ति नास्ति विसर्गः नास्ति प्रवेशपुस्तके प्रायः दोषः भगिनि मुद्रणदोषः एव
199 पेज् मध्ये वारिणी मम पुस्तके विसर्ग अस्ति
नो इट् इस् अ मिस्टेक् वारिणी एव
मम पुस्तके नास्ति भगिनि विसर्ग नास्ति
ओके धन्यवादः भगिनि
धन्यवादः वदतु भगिनि
वारिणी नास्ति प्रथम एकवचनं वारि अस्ति
वारि वारि एव
नास्ति
नास्ति नास्ति
वारिणी वारिणिः नास्ति वारि
वारि
नास्ति प्रथम एकवचनम्
सन्ध्या भगिनी वदतु प्रश्नः कः
Sorry, Bhagini, another very basic question. In all the templates that have been shared for the Vipatti Prayoga, we are seeing A, E, E, U, U and Re. Does it mean that
in Sanskrit we will not have any basic word that end with O or A, Bhagini?
Yeah, good question. So we do have aukarah, like gauhu is there, and then o is also there, Bhagini, but we don't want to complicate things, no?
Okay, so they do exist.
They do exist.
Oh, okay. Just wanted to check that. I mean, I was wondering whether there's a fundamental rule where, you know, basic Sanskrit words are not supposed to end with an O or a...
No. Asti.
Dhanyavada.
Astu. So, atra vayam patitavantaha gatavarge api. So, I think we have to start here, Kalu. 67,
page
67. Am va? Am. Am bhagini.
Astu. Jayashri bhagini?
Am bhagini.
Bhagini, we had done some of this. We had done up till 12 in one of the previous classes.
Correct. So we will read the instruction. सूचनां पठित्वा पश्यामः. आवरणे विद्यमानस्य शब्दस्य
सप्तमी विभक्ति रूपेण रिक्तस्थानि पूरयतः. रिक्तस्थानानि पूरयतः. ब्रह्मा.
सो यू केन् स्टार्ट् वित् नम्बर् 12.
पक्षिणः नीडानि निवसन्ति. पक्षिणः नीडेषु निवसन्ति.
सो अत्र पक्षिणः मूलरूपम् अस्ति पक्षिन् इति. पक्षी, पक्षिणौ, पक्षिणः. सो दट् इस् द रूपम् अत्र. पक्षी, पक्षिणौ, पक्षिणः.
बहुवचनम्.
बहुवचनं. नीडम् इत्युक्ते नेस्ट्. नीडानि निवसन्ति. अस्तु. अम्ब.
पुल्लिङ्गपक्षिन.
पुल्लिङ्गपक्षी, योगी, स्वामी इव, विद्यार्थी.
नीडेषु.
नीडेषु. नीडेषु निवसन्ति. अस्तु. अम्ब.
भगिनि, त्रीणि रूपाणि
वदतु भगिनि. जयश्री भगिनि वा वदतु.
नीडेषु.
सम्यक्. नीडयोः नीडेषु. अस्तु. अम्ब वक्तुम् इच्छति
वा?
भगिनी, नीड मूलशब्दं किं? अकारान्त वा?
अकारान्त नपुंसकलिङ्गपदं नीडम्. सो अत्र पक्षिन् इति मूलरूपं पक्षिन्, लैक् स्वामिन्. सो अतः पक्षी भवति.
नकारान्त भवति.
पक्षी. सो पक्षिन् इति मूलरूपं पक्षिन्. सो पक्षी, पक्षिणौ.
नकारान्त नपुंसकं.
नकारान्त पुल्लिङ्ग. पक्षी, पक्षिणौ, पक्षिणः. पक्षिन् इति मूलरूपं, लैक् स्वामिन्. स्वामी, स्वामिनौ, स्वामिनः. विद्यार्थी, विद्यार्थिनौ, विद्यार्थिनः. एवमेव अत्र अपि पक्षी, पक्षिणौ, पक्षिणः. अस्तु. सैनिकस्य. अम्ब. जानु इति नपुंसकलिङ्गपदम्. सो अत्र जानुनि इति भवति. वाक्यं वदतु सैनिकस्य समस्या वा अम्ब आडियो अस्तु अस्तु अग्रे जानुनि इत्युक्ते नि व्रणः इत्युक्ते वोण्ड् जानुनि नपुंसकलिङ्गपदम्
जानुनि जानुनोः जानुषु
जानुषु अत्र अस्ति खलु जानु उकारान्तपदं जानुनि जानुनोः जानुषु सैनिकस्य जानुनि व्रणः अभवत्. अस्तु चम्पा भगिनी अग्रिम.
आं भगिनि विमानानि खं भगिनि खम् अहं न जानामि खम्
खम् खम् इत्युक्ते आकाशः.
सो विमानानि खमे सञ्चरन्
खम् अहं चिन्तयामि नपुंसकलिङ्गपदम् इति लैक् गृहे गृहं गृहे. सो अहं चिन्तयामि के
सञ्चरन्ति
इति अहं चिन्तयामि. पश्यामि भगिनि एकनिमिषं पश्यामि. कथं पश्यामि इत्युक्ते अत्र खं संसाधने इति उषा भगिनी उक्तवती खलु.
आं भगिनि सप्तमी खे
के के एव सम्यक् धन्यवादः. के एव अहं चिन्तितवती. सो अत्र खम् इति अस्ति चेत् गृहम् इव गृहे अस्ति खलु. सो अतः के एव महोदय वदतु
द्विवचन बहुवचन कः भवति
के अनन्तरं
कौ
कयोः अन्द
केषु
केषु केषु
बट् दिस् इस् आल्सो पुंलिङ्गम् एण्ड् नपुंसकलिङ्गम्
एवं वा. सो अत्र नपुंसकलिङ्गम् इव अस्ति
परन्तु सप्तमी समान
सप्तमी समान आम् समानमेव अस्तु
सन्यासी सन्यासी देहे अभिमानं न करोति
अभिमानं न करोति सम्यक् त्रीणि रूपाणि देहे
देहे देहे देह देहयोः
देहयोः
देहेषु
देहेषु सम्यक्. सो अत्र सन्यासी एवमपि लेखितुं शक्नुमः अथवा एवमपि संन्यासी अनुस्वारः भवति नकारस्य स्थाने संन्यासी अस्तु. अग्रे श्रीनिवास महोदय
सद् इति शब्दः शब्दावः प्रयोगम् अर्हति
अर्हति
सद् इति शब्दः शब्दावः शब्दावे
शब्दावः इति प्रथमं वि नीड् टु फिगर् औट् द मूलरूपं खलु अवः इति अस्ति चेत् उकारान्तपुल्लिङ्गपदम् बिकास् गुरुः गुरु गुर अवः गुरवः
okay then sabdashu
sad bha so it is sad
sabdashu what is the mula means sabduhu
sabduhu sad
sabdashu okay sad idi shabdah sabdushu prayogam arhati
sad sadbhushu
sadbhushu yes.
I thought sad was an upasarga
yeah it is upasarga
why will it be mulirupu sadbhu
so the yeah so it is like sat is an upasarga but then bhu right bhu
but there is also mulirupam bhava right
bhagini sadbhave prayogam aharti
that is also correct sadbhavah
sadbhave sadhu bhave cha
yeah we can think like that also so if it is sadbhavah then it is akaranta pullinga
sadbhave sadbhavayoho sadbhaveshu
prayogam arhati sad iti shabdah सद्भावे सद्भावयोः सद्भावेषु भवति अस्तु अग्रे भक्तः श्रीनिवासमहोदय सो विल् गो फ्रम् द टाप् अगेन् श्रीनिवासमहोदय पुनः महोदय भक्तः बुद्धिः
सोरि भगिनि ऐ वास् म्यूटेड् टाकिङ्ग्
ओके ओके
भक्तः बुद्धिः शरणम् अन्विच्छति बुद्धिः वाट् इस् बुद्धिः विल् कमेण्ट् टु इकारान्तपदम् ओन्लि
इकारान्त स्त्रीलिङ्गपदम्
बुद्ध्योः भक्तः बुद्धिः
सो विल् गेट् दि औ सौण्ड् लैक् रात्रौ
मतिः मतोः ओके
मतौ मतौ
भक्तः बुद्ध्यां शरणम् अन्विच्छति
अन्विच्छति सम्यक् बुद्ध्यां
बुद्ध्यां बू दिस् द आल्सो विल् बी देर् अण्ड् बुद्ध द विल् बी देर् रैट्
बुद्ध अण्ड् देन् अ याम् लैक् देट्
कुत्र
भगिनि
बुद्ध
no there is no if you want to put the halanta then you do like this buddha hala and then a yam the yam goes all the way on top otherwise you can just start from here
middle yeah
bagini can we say buddhau
buddhau buddhau sharanam anvichyate सो अहं तदेव पश्यामि शरणम् अनु इच्छति सम्यक् न अवगच्छामि अहमपि शरणम् अनु इच्छति इति अस्ति अन्य कोऽपि जानाति वा
तत्र यान्तवान्तदेशसन्धि भवति अनविच्छति
सन्धि अहम् अवगच्छामि भगिनि परन्तु अर्थं शरणम् अनु अनु इच्छति इति भवति
अनुसरणम् अनु अर्थम्
अनु इच्छति
अनु उपसर्ग भगिनि
आम् अनु इस् उपसर्ग इच्छति अहं जानामि पनु परन्तु अनु इच्छति इत्युक्ते किम् अहं न श्रुतवती पूर्वम् अनु इच्छति अहं कोशे पश्यामि एकनिमिषम् इच्छति किं भगिनि इच्छति धातु अस्ति अनु इच्छति ओके सो ऐ एम् लुकिङ्ग् इन् द डिक्शनरी एम् फार् इट् सो इट्स् लैक् इच्छति एव इच्छति अनु इच्छति समानार्थकपदम् इच्छति धातु अनु इति उपसर्ग it became a different path. I can hear you properly, Bhagini.
Anu adhika icchati iti jana sandhi.
So, icchati is a dhatu. इति धातु अस्ति अनन्तरं अनु इच्छति
अनु अधिक इच्छति इति याणसन्धि वा
अन् इच्छति अनु यस् यण् सन्धि कश्चित् ध्वनिः अस्तु इदानीं सम्यक् अस्ति अस्तु भक्तः बुद्धौ शरणम् अन्विच्छति इत्युक्ते तस्य अर्थः अस्ति धर्मार्थकाममोक्ष इति वदामः खलु तस्य अर्थः तस्य लक्ष्यम् एवम् अस्ति मम लक्ष्यमस्ति मम बुद्धौ शरणं गच्छामि इति शरणं गच्छामि इति वदामः खलु शरणार्थं गच्छामि इति अस्तु अग्रे चम्पा भगिनी अग्रिम
परमेश्वरः पृथिव्यां पुण्यं गन्धः पुण्यः गन्धः परमेश्वरः पृथिव्यां पुण्यः गन्धः
पुण्यः गन्धः त्रीणि रूपाणि
पृथ्वी पृथिव्यौ पृथ्व्याः पृथिव्यौ पृथ्वी पृथिव्यौ पृथिव्यां
पृथिव्यः इति प्रथमाविभक्तिरूपाणि इदानीं सप्तमी विभक्ति
पृथ्व्यां पृथ्व्योः पृथ्वीषु
पृथ्वीषु अस्तु परमेश्वरः पृथिव्यां पुण्यः गन्धः अर्थः कः
परमेश्वर पृथ्वीं परमेश्वरः पृथ्वीव्यां पुण्यगन्धः अहं न जानामि भगिनि
अहमपि न सम्यक् न जानामि ऊहं करोमि परमेश्वरः पृथिव्यां पृथिव्यां पुण्यः गन्धः
सुगन्धः सुगन्धः
punya sugandha asti. We can add a verb asti iti. Parameshwarah eva etasyam prithivyam punyah gandha asti. इत्युक्ते परमेश्वरः सर्वत्र अस्ति. परमेश्वरः गन्धरूपे पुण्यगन्धरूपेण सर्वत्र अस्ति, पृथिव्यां सर्वत्र अस्ति.
भगिनि अत्र पृथिव्यां वा पृथिव्यां?
पृथिव्यां
पृथिव्यां लैक् बुद्धि तत्र बुद्ध्यां वदामः स्वत्र पृथिव्यां वा पृथिव्यां?
पृथिव्यां. सो अत्र वि इति
अस्तु अस्तु
स्थाने
अवगच्छामि. भगिनी अहम् अवगच्छामि.
पृथिवी नदीवत्.
नदीवत् आम् नदीवत्
नद्यां
नद्यां पृथिव्यां इति. पृथिव्यां पृथिव्योः पृथिवीषु. अस्तु अस्तु धन्यवादः. अम्बा वक्तुम् इच्छति वा यतिः संसिद्धिः यतते? न इति कापि कापि समस्या अस्ति आडियो. अस्तु जयश्री भगिनि यतिः
यतिः संशुद्धिः पुनः यतते. यतिः संशुद्धौ पुण्यः पुनः यतते.
पुनः यतते
संशुद्धौ संशुद्धयोः संशुद्धेषु
संसिद्धिषु संसिद्धिषु
संशुद्धिषु
संसिद्धिषु पुनः यतते. अर्थः कः? यतिः इत्युक्ते साधुजन
सेज्
सेज् साधुजनः. संसिद्धिः
संशुद्धिः संसिद्धिः मीन्स् ग्रेट्नेस्
ज्ञानं तस्य ज्ञानं
एन्लैट्मेण्ट्
एन्लैट्मेण्ट् सम्यक्
ज्ञानं.
पुनः पुनः
अटेन्स् अगेन्
यतते इत्युक्ते प्रयत्नं करोति. प्रयत्तते इति वदामः खलु प्रयत्तते.
संशुद्धि इति ह्रस्व स्त्रीलिङ्ग.
आम् ह्रस्व स्त्रीलिङ्ग. सो अतः बहुवचनं संसिद्धिषु ह्रस्व संसिद्ध. इन् हिस् संसिद्ध्यां पुनः प्रयत्नं करोति यतिः संसिद्ध्याम्. अस्तु धन्यवादः भगिनि. अस्तु अग्रे लता भगिनि.
आं भगिनि
एकनिमिषं भगिनि, प्रश्नः अस्ति वा?
आं भगिनि, यतते वी केन् से इट् इस् यत्नं करोति आल्सो भगिनि.
हा यत्नं करोति. हा
परस्मैपदी.
आम् 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 यत्नं करोति.
आत्मनेपदी.
दिस् इस् आत्मनेपदी. या यतते इस् आत्मनेपदी. यत्नं करोति प्रयत्नं करो प्रयतते अपि आत्मनेपदी. परन्तु परस्मैपदी वक्तुम् इच्छामः चेत् कृ दातुम् उपयुज्य वक्तुं शक्नुमः. यत्नं करोति प्रयत्नं करोति इति. धन्यवादः
भगिनि. प्रयत्नं करोति vibhajya prayoga
vibhajya prayoga eva prayatnam karoti athava prayatate
त्वं शुचिः सो त्वं शुच्यां देशे आसनं स्थापय शुच्यां शुच्योः शुचिषु
अस्तु
देहे आसनं स्थापय शुचि अर्थ किं भगिनि शुचिः
परन्तु अर्थः कः अत्र शुचिः इत्युक्ते स्वच्छता इति अनुमानं कर्तुं शक्नुमः खलु
आसनं मीन्स् सीट् नो
सीट् परन्तु अहं चिन्तयामि देशः इति पदस्य विशेषणम् शुच्यां देशे आसनं स्थापय त्वं
शुच्यां
इट् हेस् टु बि पुल्लिङ्ग
शुचिः मीन्स् क्लेन्लिनेस् रैट्
क्लेन्लिनेस् सो इफ् इट् इस् अ स्त्रीलिङ्ग देन् इट् इस् शुच्यां परन् इफ् यु आर् गोयिङ्ग् टु टेक् इट् लैक् विशेषणं देशः इस् पुल्लिङ्ग सो इट् हेस् टु बि पुल्लिङ्ग Shuchau. Deshe asanam sthapaya. So if I am thinking like that, that is how I will do. So it depends on the artha.
Strilinga shuchyam va shuchau dvayopi.
Dvayopi,
So to be on the safer side, we can write shuchau.
Shuchau, if I look at the meaning, suchau means clean, right? So, or pure. So, we say, pure. So we say, in a pure country, asanam sthapaya.
Okay.
Suchau. Astu. This is not easy, Kalu. It's not easy.
Bhagini, in this deshe, can we take it as place rather than country?
Yeah, place. Yeah, see, we saw one a chapter, Kalu. There you see it. Kamyatam, I just want to find out. Where we said the...
Page 32.
32, Okay, it's too far, all right. So, there is. So, we have to adjust according to the meaning, the way we understand. Ask, agree.
एकादश श्लोक शुचो देशे प्रतिष्ठाप्य
एवं वा ओके ओके
चाप्टर्
सिक्स्
श्लोक एकादश
ओ धन्यवादः शुचौ देशे Deshe means, immediately I think country, but it is a place. Astu, agre? Nirmala Bhagini, hello? Agre.
Karya Vyavasthiti, Kastra Deva Pramanam.
So, Atra, Karya. So, Karya Akarya. So it is karya vyavasthiti
karya vyavasthitya shastram eva pramanam
samyak shastram eva pramanam karyam that means the work akaryam not doing work for both shastrameva pramanam. Samyak. Astu agre. Sagari bhagini agre.
So bhagini atra karya karya vyavasthitihi shastram atra napunsaklingi asti. So it will be like karya karya vyavastho.
No, only if it's a visheshanam it becomes like that, bhagini.
Astu.
Here, Suchi is attached to desh, so there now it is a visheshanam.
Astu.
Karya karya vyavastau shastrameva pramana. Astu. Nagiri bhagini agre.
Tava buddhihi samadhihi achala tishtati. Samadhihi is Srilingam bhagini.
Chintayami, iti chintayami bhagini.
Tava buddhihi samadhyam achala tishtati.
Achala.
So the mind is, firmly established in samadhi. Is that what it means?
Samadhi. Yeah, in samadhi. Achala, chala, achala.
Samadhyam. Samadhyoho samadhishu.
Samadhishu.
But in the Bhagavad Gita, they've used a lot of samadhau, not samadhi.
So we have to know the lingam. I'm sorry, I don't know the lingam. I will check.
It says pullingam bhagini.
Pullingam, yeah. Pullingam bhagini.
Pullingam. Then it will be samadhau. The rest will be the same.
Astu. Agre? Agre ka asti? Sanjaya bhagini va? Sanjaya bhagini asti va?
Aam bhagini.
Astu.
Panditaha, brahmanaha, shvapakaha, gauhu, च समदर्शी भवति. ब्राह्मणः वुड् बी अकारान्त पुल्लिङ्गः. अतः ब्राह्मणे पण्डितः ब्राह्मणे श्वपाके gauhu
is a different one, right? Have we studied this one? Gau? No.
Na.
Gavi.
Gavi.
Gavi. Gau, we can also use dhenuhu, no, bhagini?
Dhenuhu, they should have used, yeah.
We can use dhenbam.
Dhenva. Dhenva. Dhenvam cha samadarshi bhavati.
Brahmane shvapake dhenvam cha samadarshi bhavati.
So, what is the meaning here? Attaha kaha panditaha?
A learned person views a Brahmin. A cow, and what is the shvapakaha,
Bhagini? I think this is shava, right? Shava or shva?
But Bhagini, pakaha is something to do with cooking, isn't it, Bhagini?
I know, but I don't know. I'm thinking, so it cannot be shva, it can be only shva.
Shvapakaha.
So I'm thinking it must be something bad, right?
Lower caste, outcast.
Lower caste.
It could be that, actually.
Yeah.
Achandala.
Achandala.
Could it be a bird?
Okay, I'm looking up the meaning. Sorry, I'm not very prepared today. I had so much work. Sorry about that.
I'm looking.
Swapak means skillful. Skillful too. Industrious. Swapak means.
No. So I am looking at the meaning. The one who eats dogs.
Yeah, who
cooks dog food?
किं महोदय वदतु?
गीता अध्याय पञ्चम
श्लोकः
अष्टादशः. शुनि चैव स्वपाके च पण्डिता समदर्शिनः.
वाव, ओके.
स्वपाके इति मीन्स् द डॉग.
द वन हु कुक्स डॉग.
यस, स्वपाके मीन्स् द वन हु कुक्स डॉग. फॉर मेन ऑफ एन आउटकास्ट ट्राइब.
या आउटकास्ट ट्राइब. या यू नो ओनली दोस पीपल विल डू दैट लाइक दैट.
Brahmanas and outcasts their house uniformly.
Correct.
The same way.
Correct. Like the Chandala, right? So Shiva, he came to test Shankara, like that. Ashtu. So we'll try to complete this. The next person, Sandhya Bhagini Abhavat, Agre Kaasti, Sharada Bhagini. Ishwaraha,
Sarva Bhutanam, रुद्धेशे तिष्ठति.
रुद्धेशेषु
अष्टादश अध्याय एकषष्टि श्लोक.
हौ डू यू नो, हौ केन् यू कम अप् विद् इट् सो फास्ट् महोदय? यु हाव् दट् आर् यु लुकिङ्ग् एट् द गीता सैट् आर् यु जस्ट् नो?
ऐ नो सम् आफ् देम्, नाट् आल्.
वेरि इम्प्रेस्. अस्तु, अग्रे सविता भगिनी.
आं भगिनि. आपत्यः वीरः धैर्यं न जहाति. आपत्यः आपत्येषु वीरः धैर्यं न जहाति.
अर्थः का?
इवन् ड्यूरिङ्ग् ट्रैङ्ग् टैम्स् आपत्ति इस् मिसर् ट्रैङ्ग् टैम्स् अ वेलरस् पर्सन् विल् नाट् लूस् हिस् धैर्यं.
वेरि गुड्.
आपत्तिषु भगिनि,
आपत्येषु आपत्. ओके, सो आपत्तये आपत्तये आपत्तययोः आपत्तये अस्ति, योः अपि अस्ति. आपत्तयेषु
ऐ थाट् इट् वास् बहुवचनं आफ् आपत्ति भगिनि. आपत्तिः आपत्तयः
प्रायः भगिनि. आपत्ति वा
आपत्तिः
बहुवचनं खलु आपत्तयः.
भगिनि ऐ थाट् इट् वास् दट् वे आपत्तयः आपत्तिः आपत्तयोः
आपदा इन् हिन्दी देशे भगिनि आपदा सन्दे
आपत्ते आपत्तयोः
वैरः धैर्यं न जहाति
आं भगिनि आपत्तिः एव आपत्तिः एव अस्तु अग्रे का अस्ति उर्मिला भगिनि
चमुः भयं नास्ति चमुः गुरुवत् भवति रज्जुवत् भवति
रज्जुः परन्तु चमूः
चमुः
स्त्रीलिङ्गपदं
चमुः बहुवचनम् नो वधु लैक् चम्वां चम्वां भयं नास्ति
एकवचनमेव भयं नास्ति
किन्तु भगिनी आपत्तिः आपत्तिः हरिवत् भवति वा
आपत्तिः पुल्लिङ्गं वा स्त्रीलिङ्गं वा प्रथमं तत्तु पुल्लिङ्ग पुल्लिङ्ग इति अस्ति चेत् हरिवत् मतिवत् परन्तु रूपं समानमेव
सो आपत्तयः बहुवचनम् अस्ति सो आपत्तिषु आपत्तिषु वीर्यः धैर्यं न जहाति
आपत्तिषु
अस्तु अस्तु
it it shows strilingam bagini
strilingam va dhanyavad yeah
so mati hi vat bhavati mati vat
mati vat mati vat astu chamuh abhavat agre usha usha bagini
shriti shriti vikaran
ha
mati
vat ha mati vat क्षितिः इत्युक्ते भूमिः इव लैक् द ग्रौण्ड् इति भूमिः क्षित्यां जलं क्षित्यां जलम् उद्भवति अस्तु विष्णुमहोदय अन्तिमम् अनन्तरं विरमामः
आं भगिनि अर्जुनः तेजोराज इकारान्तपुल्लिङ्गे विश्वरूपं पश्यति अर्जुनः तेजोराशे
राशेन भवति राशौ प्रायः
राशौ तेजोराशिषु
राशिषु बहुवचनं विश्वरूपं
तेजोराशिषु विश्वरूपं पश्यति धन्यवादः
धन्यवादः स्वयं ऊकारान्तपदं खलु इट्स् लैक् वधू वद्वां वकारः भवति ऊ अस्ति वा भवति सो वां संवां
भगिनी अष्टाविंशतिः तेजो राशिः एकवचनं भवति तत् तदर्थं तेजो तेज तेजो
राशे
राशौ राशौ
तेजो राशौ
राशौ
वा तेजो राश्यां
तेजो राश्याम् अथवा तेजो राशौ विश्वरूपं पश्यति
अस्तु
स्त्रीलिङ्ग
स्त्रीलिङ्गपदम्
Bhagini, on page 65, Rashihi is Pullingam, Ikaranta Pullingam it says.
Evam va, okay.
The previous page.
Yes. Ikaranta Pullingam. Dhanyavada Bhagini. So it can be only Rashau. Not.
Should be Rashau, Rashyoho, Rashishu.
एकवचनमेव भिन्नरूपं भवति राशौ अथवा राश्याम् इति विकल्पं भवति, परन्तु द्विवचनं बहुवचनं समानमेव. धन्यवादः भगिनी. अस्तु, विरमाम, बहु समयः अभवत्, क्षम्यताम्. अस्तु, ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु
गुरुभ्यो नमः.
हरि
हरि ओम्.
ఖలు 4:30, సారీ భగిని. Okay, I'll stay in the timing.
Thank you.